विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहित पीवरोरुभिः विभिद्यमाना विससार सारसान् उदस्य तीरेषु तरङ्गसंहतिः विगाढेति प्रयत्नेन संवाहिताः सञ्चारिताः पीवराः स्थूलाः उरवः याभिः ताभिः रमणीभिः अम्भसि विगाढमात्रे प्रविष्टे एव सति सुप्सुपेति समासः मात्रम् कार्ष्णियेव धारणे इत्यमरः विभिद्यमाना स्वयम् विशीर्यमाणा कर्मकर्तरि शानच् तरङ्गसंहतिः तीरेषु सारसान् पक्षिविशेषान् सारसो मैथुनीकामी गोनर्दः पुष्कराह्वयः इति यादवः यद्वा सारसान् हंसान् चक्राङ्गः सारसो हंसः इति शब्दार्णवे उदस्य उत्सार्य विससार वितस्तार शिलाघनैर्नाकसदामुरस्थलैः बृहन्निवेशैश्च वधूपयोधरैः तटाभिनीतेन विभिन्नवीचिना ऋषेव भेजे कलुषत्वमम्भसा शिलेति शिलावत् घनैः कठिनैः नाकसदाम् गन्धर्वाणाम् उरस्थलैः बृहन्निवेशैः महासंस्थानैः अतिस्थूलैः इत्यर्थः वधूपयोधरैश्च तटम् अभितः नीतेन प्रापितेन अत एव विभिन्नवीचिना भग्नोर्मिणा अम्भसा कर्त्रा ऋषेव इति हेतूत्प्रेक्ष कलुषत्वम् आविलत्वम् मनः क्षोभश्च ध्वन्यते भेजे कर्मणि लिट् यथा कश्चित् मृदुस्वभावः केनचित् कठिनादिना साङ्गभङ्गम् ताडयित्वा निष्कासितः क्षुभ्यति तद्वदिति भावः कलुषत्वम् इत्यत्र वाच्यप्रतीयमानयोः अभेदाध्यवसायः अन्यथा शुद्धवाच्यस्य आविलत्वस्य रोषहेतुकत्वात् उत्प्रेक्षानुविधानात् इति विधूतकेशाः परिलोलितस्रजः सुराङ्गनानाम् प्रविलुप्तचन्दनाः अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः विधूतेति विधूताः विक्षिप्ताः केशाः यैस्ते परिलोलिताः विलोलिताः स्रजः यैस्ते प्रविलुप्तचन्दनाः प्रमृष्टाङ्गरागाः अतिप्रसङ्गात् अविच्छेदात् सुराङ्गनानाम् विहितागसः कृतमण्डनखण्डनरूपापराधाः अत एव ऊर्मयः तरङ्गाः सभयाः इव स्त्रीभ्यः भीताः इव मुहुः प्रकम्पम् ईयुः स्वाभाविकस्य कम्पस्य भयहेतुकत्वम् उत्प्रेक्ष्यते यद्वा सुराङ्गनानाम् विधूतकेशाः इत्यादि योजना सापेक्षत्वेऽपि गमकत्वात् समासः स्त्रीसङ्ग्रहणसाहसम् अपराधः भयन्तु राजादिभ्य इति विपक्षचित्तोन्मथना नखव्रणाः तिरोहिता विभ्रममण्डनेन ये हृतस्य शेषानिव कुङ्कुमस्य तान् विकत् तिष्ठनीयान् दधुरन् यथा स्त्रियः विपक्षेति विपक्षस्य सपत्नीजनस्य चित्तानाम् उन्मथनाः व्यथकाः इत्यर्थः बहुलग्रहणात् कर्तरि ल्युट् ये नखव्रणाः नखक्षतानि व्रणोस्त्रियाम् इत्यमरः बिभ्रमस्य सौन्दर्यस्य मण्डनम् तादर्थ्येऽपि अश्वघासादिवत् षष्ठीसमासः न तु चतुर्थीसमासः यूपदार्वादिवत् प्रकृतिविकाराभावादिति तेन कुङ्कुमलेपनादिना तिरोहिताः छन्नाः हृतस्य क्षालितस्य कुङ्कुमस्य व्यञ्जकत्वेन शेषानिव अवशिष्टलेशानिव स्थितानिति उत्प्रेक्षा विकत्थनीयान् भर्तृवाल्लभ्यस्य व्यञ्जकत्वेन श्लाघनीयान् तान् नखव्रणान् स्त्रियः अन्यथा दधुः प्रकाशम् दधुः इत्यर्थः सरोजपत्रेनु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने शिरोरुहास्विन्नत पक्ष्मसन्ततेः द्विरेफवृन्दम् नु निशब्दनिश्चलम् अगूढहासस्फुटदन्तकेसरम् मुखम् स्विदे तद्विकसम् नु पङ्कजम् इति प्रलीनाम् नलिनीवने सखीम् विदाम्बभूवुः सुचिरेण योषितः सरोजेति अगूढेति च अमू पुरोवर्तिनी विलीनषट्पदे संसक्तभृङ्गे सकनीनिकत्वम् अक्ष्णोः अर्थसिद्धमित्युपमानम् विशिष्यते सरोजपत्रेनु यद्वा विलोलदृष्टेः चञ्चलाक्ष्याः विलोचने स्वित् नु स्विच्छब्दौ वितर्के किञ्च नतपश्मसन्ततेः चञ्चलाक्ष्याः शिरोरुहाः स्वित् निशब्दम् नीरवम् च तन्निश्चलम् च तत् द्विरेफवृन्दम् नु किञ्च अगूढहासः व्यक्तस्मितम् तेन स्फुटाः दन्ताः केसराः इव दन्तकेसराः यस्य तत् मुखम् स्वित् यद्वा विकसत्पङ्कजम् नु इति इत्थम् संशयेनेति शेषः नलिनीवने प्रलीनाम् निगूढाम् सखीम् योषितः सुचिरेण अतिविलम्ब्य विदाम्बभूवुः विविदुः उषविदजागृभ्योऽन्यतरस्याम् इति विकल्पात् आम्प्रत्ययः अत्र युग्मे निश्चयान्तसन्देहालङ्कारः प्रियेण सङ्ग्रथ्य विपक्षसन्निधौ उपाहिताम् वक्षसि पीवरस्तने स्रजम् न काचिद्विजहौ जलाविलाम् वसन्ति हि प्रेम्णि गुणान वस्तुनि प्रियेणेति काचित् प्रियेण सङ्ग्रथ्य स्वयमेव रचयित्वा विपक्षसन्निधौ सपत्नीजनसमक्षम् पीवरस्तने वक्षसि उपाहिताम् स्रजम् मालाम् जलाविलाम् मृदितामपि इत्यर्थः ताम् न विजहौ न तत्याज न च निर्गुणायाम् तत्र का प्रीतिरिति वाच्यम् इति अर्थान्तरन्यासेन आह गुणाः प्रेम्णि वसन्ति वस्तुनि न वसन्ति हि यत् प्रेमास्पदं तदेव गुणवत् अन्यत्तु गुणवदपि निर्गुणमेव प्रेम तु न वस्तुपरीक्षाम् अपेक्षते इति भावः असंशयम् न्यस्तमुपान्तरक्तताम् यदेव रोद्धुम् रमणीभिरञ्जनम् हृतेऽपि तस्मिन् सलिलेन शुक्लताम् निरासरागो नयनेषु न श्रियम् असंशयमिति स्त्रीणाम् नेत्रशोभार्थम् अञ्जनधारणम् अम्बुविहारोपगमात् रक्तवर्णत्वञ्च अक्ष्णाम् ततः शुक्लत्वतिरोधानञ्च निश्चितमिति उत्प्रेक्ष्यते रमणीभिः यदञ्जनम् न्यस्तम् तदिति शेषः यत्तदोः नित्यसम्बन्धात् तदञ्जनम् उपान्तयः रक्तताम् रोद्धुम् प्रतिबद्धुमेव न्यस्तम् न तु शोभार्थमित्यर्थः अन्यथा रागाभिव्याप्त्या शुक्लत्वतिरोधानम् स्यात् इत्यर्थः असंशयम् इति उत्प्रेक्षाव्यञ्जकम् संशयस्यापि अभावः नात्र संशयः अस्तीत्यर्थः अर्थाभावे अव्ययीभावः कुत एतदिति चेत् यतः तस्मिन् अञ्जने सलिलेन हृते क्षालिते सत्यपि रागः पूर्वोक्त एव उपान्तरक्तता किन्तु प्रतिबन्धाभावात् अभितः व्याप्त्येति आशयः नयनेषु शुक्लताम् निरास निरस्तवान् अस्य तेः लिट् श्रियम् शोभाम् तु न निरास अतः शुक्लत्वविरोधि रागनिरोधार्थमेव इदमञ्जनम् स्यात् न तु शोभार्थम् तस्याः तदभावेऽपि सद्भावादित्यर्थः अञ्जनापगमेऽपि तन्नयनानाम् राग एव अलङ्कारः अभूदिति भावः अत्र अञ्जनन्यासम् अनूद्य तस्य शोभार्थत्वनिषेधेन रागरोधार्थत्वोत्प्रेक्षणम् उदितम् उत्तरार्धे तस्यैव समर्थनात् एवम् उपान्तरक्तताम् रोद्धुम् यदञ्जनम् न्यस्तम् इत्येकान्वये विध्यनुवादविरोधः स्यात् द्युतिम् वहन्तो वनितावतंसकाः हृतः प्रलोभादिव वेगिभिर्जलैः उपप्लुतास्तत्क्षणशोचनीयताम् च्युताधिकाराः सचिवा इवाययुः द्युतिमिति द्युतिम् शोभाम् तेजश्च वहन्तः वेगिभिः जविभिः जलैः अग्नैश्च डलयोः अभेदात् जलम् गोकवले नीरे ह्रीबेरे च जडेन्यवत् इति विश्वः प्रलोभात् मोहात् हृताः गृहीताः उपप्लुताः मृदिताः यद्वा कर्तरि तः प्लवमानाः इत्यर्थः अन्यत्र धनग्रहणबन्धनादिना पीडिताः वनितावतंसकाः च्युताधिकाराः भ्रष्टाधिकाराः सचिवाः इव तत्क्षणम् शोचनीयताम् आययुः प्रापुः विपत्रलेखा निरलक्तकाधराः निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् निरीक्ष्य रामा बुबुधे नभश्चरैः अलङ्कृतम् तद्वपुषैव मण्डनम् विपत्रेति विगताः पत्रलेखाः तिलकविशेषाः यासाम् ताः विपत्रलेखाः निरलक्तकाः क्षालितरागाः अधराः यासाम् ताः निरञ्जनानि अक्षीणि यासाम् ताः निरञ्जनाक्षीरपि बहुव्रीहौ सख्यक्ष्णोः स्वाङ्गात् शच् षिद्गौरादिभ्यश्च इति ङीष् तथापि श्रियम् बिभ्रतीः शोभाकारणाभावेऽपि शोभमाना इति विभावनालङ्कारः रामाः निरीक्ष्य नभश्चरैः गन्धर्वैः तासाम् वपुषा एव मण्डनम् अलङ्कृतम् न तु मण्डनेन तद्वपुः इति अक्षरार्थः इति बुबुधे ज्ञातम् कर्मणि लिट् स्वभावरमणीयानाम् किमलङ्करणैः इति भावः तथा न पूर्वम् कृतभूषणादरः प्रियानुरागेण विलासिनी जनः यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टिश्च विपक्षयोषिताम् तथेति विलासिनीजनः पूर्वम् जलविहारात् प्राक् प्रियानुरागेण कृतः भूषणेषु आदरः आसक्तिः येन सः अनुरक्तप्रियत्वात् सम्यक् प्रसाधितः सन्नपि इत्यर्थः प्रियस्य अनुरागेण च विपक्षयोषिताम् सपत्नीनाम् दृष्टीः चक्षूंषि तथा न ददाह न दुःखी चकार यथा जलार्द्रः सन् नखशब्देन नखक्षतानि लक्ष्यन्ते तान्येव मण्डनम् तस्य श्रिया तत्कृतशोभया इत्यर्थः विपक्षयोषिताम् सपत्नीनाम् दृष्टीः चक्षूंषि यथा ददाह तापयामास मण्डनान्तरादपि नखमण्डनानुरागादपि तदनुभाव एव सपत्नीनाम् दुःखहेतुरिति भावः जलार्द्रः ददाहेति विरुद्धकार्योत्पत्तिरूपः विषमालङ्कारः विरुद्धकार्यस्योत्पत्तिः यत्रानर्थस्य वा भवेत् विरूपघटना वा स्यात् विषमालङ्कृतिस्त्रिधा इति लक्षणात् शुभाननाः साम्बुरुहेषु भीरवः विलोलहाराश्च लफेन पङ्क्तिषु नितान्तगौर्यो हृतकुङ्कुमेश्वलम् नलेभिरेताः परभागमूर्मिषु शुभेति शुभाननाः विलोलहाराः नितान्तगौर्यः अरुणाङ्ग्यः गौरोरुणे सिते पीते इति वैजयन्ती भीरवः ताः स्त्रियः साम्बुरुहेषु चलाः फेनपङ्क्तयः येषु तेषु हृतानि कुसुमानि यैः तेषु कुङ्कुमसङ्क्रमारुणेषु इत्यर्थः ऊर्मिषु विषयेषु अलम् अत्यर्थम् परभागम् गुणोत्कर्षम् न लेभिरे परभागो गुणोत्कर्षः इति यादवः तासाम् ऊर्मीणाम् च अरुणत्वादिगुणसाम्यात् न कश्चिद्विशेषः लक्ष्यते इत्यर्थः अत एव सामान्यालङ्कारः सामान्यम् गुणसाम्येन यत्र वस्त्वन्तरैकता इति लक्षणात् शुभाननत्वसाम्बुरुहत्वाद्युभयविशेषणानाम् क्रमेण उभयस्मिन् समन्वयात् यथासङ्ख्यालङ्कारश्च यथासङ्ख्यम् क्रमेणैव क्रमिकाणाम् समन्वयात् इति काव्यप्रकाशे लक्षणात् अनयोः अङ्गाङ्गिभावेन सङ्करः ह्रदाम्भसिव्यस्तवधूकराहते रवम् मृदङ्गध्वनिधीरमुज्झति मुहुस्तनैस्तालसमम् समाददे मनोरमम् नृत्यमिव प्रवेपितम् ह्रदेति व्यस्ताभ्याम् विपर्यासिताभ्याम् वधूकराभ्याम् आहते एकेन करेण उत्सार्य अन्येन ताडिते इत्यर्थः ह्रदाम्भसि मृदङ्गध्वनिवत् धीरम् गम्भीरम् रवम् उज्झति सति तथा ध्वनति सतीत्यर्थः मुहुः स्तनैः तालः गीतवाद्यनृत्यानाम् कालपरिच्छेदः तालः कालक्रियामानम् इत्यमरः तस्य समम् अनुरूपम् मनोरमम् नृत्यमिव प्रवेपितम् प्रकम्पः भावेक्तः समाददे स्वीकृतम् उपमालङ्कारः श्रियाः सद्भिः कमलानि सस्मितैः अलङ्कृताम्बुः प्रतिमागतैर्मुखैः कृतानुकूल्या सुरराजयोषिताम् प्रसादसाफल्यमवाप जाह्नवी श्रियेति श्रिया शोभया कमलानि हसद्भिः कमलसदृशैः इत्यर्थः हसतीर्षत्यसूयति इति दण्डिना सदृशपर्यायपराः उक्ताः सस्मितैः प्रतिमागतैः प्रतिबिम्बगतैरित्यर्थः प्रतिमानम् प्रतिबिम्बम् प्रतिमा इत्यमरः मुखैः अलङ्कृतानि अम्बूनि यस्याः सा किञ्च सुरराजयोषिताम् कृतम् आनुकूल्यम् विहाराद्युपकारः यया सा इत्थम् योषिद्भिः उपकृता स्वयम् च तासाम् उपचिकीर्षुः जाह्नवी गङ्गा प्रसादस्य स्वच्छत्वस्य साफल्यम् अर्थगौरववत् षष्ठीसमासनिर्वाहः अवाप अप्रसन्नाम्भसि विहारबिम्बग्रहणयोः असम्भवात् इत्यर्थः स्वच्छा एव हि परैः उपक्रियन्ते स्वयम् च उपकुर्वते तेषामिति भावः कृतानुकाराः इति पाठे अनुकारः अनुकूलकरणम् उपकार इत्येवम् व्याख्येयम् अत्र जाह्नवीविशेषणपदार्थस्य साफल्यम् प्रति हेतुत्वात् काव्यलिङ्गमलङ्कारः
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् परीति परितः स्फुरद्भिः विवर्तमानैः मीनैः विघट्टिताः ऊरवः यासाम् ताः अत एव त्रासविलोलदृष्टयः भयविकसन्नेत्राः कम्पितपाणिपल्लवाश्च सुराङ्गनाः सखीजनस्यापि विलोकनीयताम् उपाययुः किमुत प्रियजनस्येति भावः स्वभावोक्तिरलङ्कारः